आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा। अथ वार्ताः। पश्चिमबंगे विधानसभा निर्वाचनार्थं प्रचारः तीव्रतरो जातः। विभिन्न राजनैतिक दलानां शीर्ष नेतारः मतदानात् प्राक् अन्तिमदिनेषु मार्ग प्रदर्शनानां श्रृंखलां संचालयन्तः सन्ति। भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता प्रधानमंत्री नरेन्द्र मोदी ह्यः राज्यस्य झारग्राम पुरलिया विष्णुपुर मण्डलेषु अनेकाः जनसभाः संबोधितवान्। श्रीमोदी दृढतया उक्तवान् यत् पश्चिमबंगे भाजपेति दलस्य डबल इंजन इति प्रशासनं राज्यस्य महिलाभ्यः द्विगुणं लाभं प्रदास्यति। सह तृणमूल कांग्रेस
चाहती थी कि उनको 33% आरक्षण मिले, लेकिन टीएमसी नहीं चाहती थी कि बंगाल की बेटियां ज्यादा संख्या में एमएलए बने, क्योंकि बंगाल की बेटियां इनके महाजंगल राज को चुनौती दे रही है।
सह तृणमूल कांग्रेस दलम आरोपितवान् यत् एतत् दलम कांग्रेस दलेन सह मिलित्वा विधानमण्डलेषु महिलानां प्रवेशं प्रतिबन्धयितुं प्रयतते। तृणमूल कांग्रेस दलस्य अध्यक्षा पश्चिमबंगस्य मुख्यमंत्री च ममता बैनर्जी हुगली मण्डलस्य तारकेश्वर क्षेत्रे तथा च पूर्व वर्धमान मण्डलस्य कालना क्षेत्रे जनसभा अकरोत्। कांग्रेस वामपंथी अन्यानि च राजनैतिक दलानि अपि संपूर्ण पश्चिमबंगे सक्रियतया प्रचारं कुर्वन्तः सन्ति। पश्चिमबंगे मतदानं द्वयोः चरणयोः भविष्यति, यद्धि अस्य मासस्य 23 तथा 31 दिनांकयोः आयोजितं वर्तते। विदेशमंत्री डॉ एस जयशंकरः ह्यः नवदिल्ल्यां दक्षिण कोरिया देशस्य राष्ट्रपतिना ली जे म्यूंग महोदयेन सह अमिलत्। सामाजिकान्तर्जालीय पटलेषु डॉ जयशंकरः विविध क्षेत्रेषु द्विपक्षीय सम्बन्धान् सुदृढान् कर्तुं दक्षिण कोरिया राष्ट्रपतेः प्रतिबद्धतां प्रशंसितवान्। सः विश्वासं प्रकटितवान् यत् अद्य प्रधानमन्त्रिणा नरेन्द्र मोदिना सह तस्य सम्भाषणं उभयोर्देशयोः विशेष सामरिक सहयोगम् अधिकं सुदृढं करिष्यति। दक्षिण कोरिया राष्ट्रपतिः ली जे म्यूंग भारतस्य त्रिदिवसीय भ्रमणाय ह्यः सायंकाले नवदिल्ल्यां प्राप्तवान्। भारतस्य उपराष्ट्रपतिः सीपी राधाकृष्णन् अद्य स्वस्य श्रीलंका देशस्य आधिकारिक भ्रमणस्य द्वितीये दिने नुवारा इलिया नगराय प्रस्थास्यति। एषा यात्रा भारतस्य गभीरं विकास सहयोगं अपि च जनसामान्यैः सह निरन्तरं सम्पर्कं प्रदर्शयति। भ्रमणकाले असौ भारतीय प्रशासनेन समर्थितानां गृह परियोजनास्थलानां निरीक्षणं करिष्यति तथा च भारतीय मूलस्य तमिल समुदायस्य जनैः सह साक्षात् संवादं करिष्यति। एषः सन्देशः अस्ति यत् नवदिल्ली तेषां कल्याणाय दीर्घकालिक सामाजिक आर्थिक प्रगतये च प्रतिबद्धा वर्तते। ईरान देशः अमेरिका देशेन सह द्वितीय चरणस्य शान्ति उदन्ताय अंगीकारं निराकृतवान्। एषः निर्णयः अमेरिका राष्ट्रपतिनः डोनाल्ड ट्रम्प महोदयस्य प्रत्यक्षतया विरोधाभासं प्रकटयति, येनोक्तमासीत् यत् अमेरिका देशस्य मध्यस्थाः सोमवासरे रात्रौ वार्तालापार्थं पाकिस्तानं सम्प्राप्स्यन्ति। आईपीएल क्रिकेट क्रीडायां प्रियांश आर्यः कपूर कुनोली च क्रमशः 93 तथा 87 धावनांकान् संगृहीतवन्तौ, येन पंजाब किंग्स दलेन लखनऊ सुपर ज्वाइंट्स दलं 45 धावनांकैः पराजितम्। क्रीडायाः सर्वश्रेष्ठ क्रीडकत्वेन प्रियांश आर्यः घोषितः। इति वार्ताः।